तृतीयोऽध्यायः अर्जुन उवाच ज्यायसि चेत् कर्मणस्ते मता बुद्धिः जनार्दन तत्किं कर्मणि भोजे मां नियोजयसि केशव तदेकं वद निश्चित्य येन श्रेयोऽहम् आप्लुया श्रीभगवानुवाच लोके विविधानिष्ठा पुरा प्रोक्ता मया नखा ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनां सन्न्यसनादेव सिद्धिं समधिगच्छति न हि कश्चित् क्षणमपि जातु तिष्ठत्य कर्म कृत् कार्यदेह्यवशः कर्म सर्वकृतिजयगुणैः कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते यस्त्रिन्द्रियाणि मनस नियम्यारभते गुणा कर्मेन्द्रियैः कर्मयोगम् असक्तः स विशिष्यते कर्मणः शरीरयात्रापि च ते न प्रसिद्ध्येद कर्मणः
ಮಾನವ ಆತ್ಮನ್ಯೇವ ಚ ಸಂ
तस्य कृते नार्थो नाकृते नेह कश्चन न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः तस्मादसक्तः सततं कार्यं कर्म समाचर असक्तोऽप्याचरन् कर्म परमाप्नोति पुरुषः कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि तत्तदीवेतरो जनः स यत्प्रमाणं कुरुते लोकः तदनुवर्तते लोकेषु किञ्चन नानवाप्तम् अवाप्तव्यं वर्तयेव च कर्मणि यजिह्यगं न वर्तेयं जातु कर्मण्यतन्द्रितः मम वर्त्मानुवर्तन्ते मनुष्या पार्थ सर्वशः कुर्यात् विद्वांस तथा सक्तः जिकीर्षुः लोकसङ्ग्रहम् बुद्धिभेदं जनयेत् अज्ञानां कर्मसंगिनां जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् प्रकृते क्रियमाणानि गुणैः कर्माणि सर्वशः अहंकार विमूढात्मा कर्ताहमिति मन्यते कृष्णविदो मन्दान् कृष्णविन्न विचारयेत् मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मकेतस निराशीः निर्ममो भूत्वा युध्यस्व विगतज्वरः ज्ञानवानपि प्रकृतिं य यान्ति भूतानि निग्रहः किं करिष्यति
अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पुरुषः अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः
महाशनो महापाप्मा विद्येन मिह वैरिणम् तस्मात् त्वमिन्द्रियाण्यादौ
ಪುಣ್ಯ ಭರತರ್ಷಭ ಪಾಪಾನಂ ರಜಗಿಖ್ಯೇನಂ ಜ್ಞಾನ ವಿಜ್ಞಾನ ನಾಶನಂ ಇಂದ್ರಿಯಾಣಿ ಪರಾಣ್ಯಾಹು ಇಂದ್ರಿಯೇಭ್ಯ ಪರಂ ಮನಃ ಮನಸಸ್ತು ಪರಾ ಬುದ್ಧಿ ಯೋ ಬುದ್ಧೇ ಪರತಸ್ತು ಸಹ ಏವಂ ಬುದ್ಧೇ ಪರಂ ಬುದ್ಧ್ವಾ ಸಂಸ್ತಭ್ಯಾತ್ಮಾನಂ ಆತ್ಮನ ಜಹಿ ಶತ್ರುಂ ಮಹಾಬಾಹೋ ಕಾಮರೂಪಂ ದುರಾಸದಂ ಸದಿತಿ ಶ್ರೀಮದ್ಭಗವದ್ಗೀತಾಸು ಉಪನಿಷತ್ಸು ಬ್ರಹ್ಮವಿದ್ಯಾಯಾಂ ಯೋಗಶಾಸ್ತ್ರೇ ಶ್ರೀಕೃಷ್ಣಾರ್ಜುನ ಸಂವಾದೇ ಕರ್ಮಯೋಗೋ ನಾಮ ತೃತೀಯೋಧ್ಯಾಯಃ